एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। यमपञ्चक पर्वणः अन्तिमे दिवसे ह्य भातृटीका पर्व समायोजितम्, यत्र भगिन्यः स्वकीय भातृणाम् सुख समृद्धि दीर्घायुष्याणि अभिलक्ष्य तान् टीकाम् पर्यधापयन्। टीकायाः परिधापनावसरे भगिन्यः धार्मिक विध्यनुसारेण मण्डपम् निर्माय अष्टानाम् चिरञ्जीवीनाम् यमस्य यमुनायाश्च पूजन पुरस्सरम् तैलधारया आविष्ट्य सप्तरङ्गमयीम् पञ्चरङ्गमयीम् वा टीकाम् दुर्वाम् च परिधाप्य मखमली शतपत्रिकाणाम् माला समर्प्य विविध फल व्यञ्जन मिष्ठान्नानि प्रदाय च भ्रातृणाम् चिरायुष्यम् अकामयन्त। भ्रातरश्च भगिनी प्रपूज्य स्वशक्ति अनुसारेण ताव्य वस्त्रभूषणादीन् उपहारान् समर्पयन्। एतासाम् अटल सुख सौभाग्य समृद्धि चिरायुष्याणि च अभ्यलसन्। पूर्वम् कदाचित् स्वभवनम् प्राप्तो यम तदीय भगिन्याः यमुनया ससम्मानम् टीकाम् परिधाप्य फलपुष्पादिनी समर्प्य च अभ्यर्थिता, ततः प्रवृत्ति भातृभगिन्योर्मध्ये टीका परिधापनपूर्वकम् उपहार प्रदान परम्परा प्रारब्धेति पौराणिक वृत्तम् वर्तते। भगिनीविना भ्रातर ह्य काष्ठमण्डपस्य राज्य पुष्करिण्या मध्ये अवस्थितस्य यमलेश्वर महादेवस्य दर्शन पूजने विदाय ललाटे तदीय प्रसादत्वेन टीकाम् पर्यददत्। मन्दिरमिदम् प्रतिवर्षम् अश्विनेव दिवसे उद्घाट्यते। एवमेव जयबागेश्वरी वर्तिनी खञ्जनेश्वर मन्दिरेऽपि ह्य भगिनीविना भ्रातरः पूजार्चने विदाय टीका प्रसादौ अगृह्णन्। अत्रक्रमे ह्य राष्ट्रपतिना रामचन्द्र पौडेलेन पूर्वाह्नस्य सप्तत्रिंशदुत्तरैकादशवादनस्य शुभमुहूर्ते स्वस्य भगिन्योस् शारदा चन्दादेव्योः हस्तात् टीका गृहीतेति राष्ट्रपतेः स्वकीय सचिवालयेन ज्ञापितम् वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिना बालवाटारा वर्तिनी प्रधानमन्त्री निवासे स्वस्य भगिनीनाम् विष्णुमाया ढकालस्य कौशिला कोइराला विदस्य विष्णु ओलिनश्च हस्तेभ्यः शुभमुहूर्ते टीका परिगृहीता। नेपाली कांग्रेस दलस्य सभापतिः पूर्व प्रधानमन्त्री च शेरबहादुर देउवा बुढा नीलकण्ठ वर्तिनी निवासे स्वस्य अनुजायः सुशीला खड्का विदाया हस्तात् टीकाम् गृहीतवान्। महोत्तरी साहित्येषु सम्पूर्ण मिथिलाञ्चल क्षेत्रस्य भूभागेषु अपि ह्य भगिनीभिः स्वस्वभ्रातृणाम् दीर्घायुष्यम् प्रकाम्य भैयादूज पर्व समायोजितमस्ति। मिथिला क्षेत्रे पर्वेदम् भैयादूज भातृद्वितीया च नाम्ना प्रसिद्धमस्ति। प्रधानमन्त्री केपी शर्मा ओली राष्ट्रस्य विकासम् केन्द्र निधाय प्रारब्धाः पूर्वाधार निर्माणस्य परियोजनाः क्रमशः सम्पादयिष्यन्ते इति प्रतिबद्धताम् व्यनक्ति। गौतमबुद्ध अन्तर्राष्ट्रिय विमानस्थलात् थाई एयर एशिया नाम्न्या वायुसेवया ह्यस्तन दिवसात् बैंकक भैरवास्थानयोः कृते उड्डयनस्य प्रारम्भस्य सन्दर्भे प्रधानमन्त्री ओली सामाजिक सञ्जालस्य माध्यमेन एवं विचारं व्यक्तवान् अस्ति। नेपाल नागरिकोड्डयन प्राधिकरणस्य अनुसारेण वायुसेवया नया प्रति सोमवासरम् प्रतिबृहस्पतिवासरम् च गौतमबुद्ध अन्तर्राष्ट्रिय विमानस्थलात् एतयोः स्थानयोः कृते नियमितरूपेण उड्डयनम् विधास्यते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिम्ह वर्ल्ड अरवान फोरम नाम्नि कार्यक्रमे सहभागितायै इजिप्ट देशस्य कायरो नगरम् प्रस्थितो वर्तते। मन्त्री सिम्ह नेपाली प्रतिनिधिमण्डलस्य नेतृत्वम् विदधान ह्य इजिप्ट देशस्य कायरो नगरम् प्रस्थितोऽस्ति। विश्वस्य 50+ अधिकानाम् देशानाम् सहभागितायाम् सम्पद्यमाने तस्मिन् सम्मेलने नगरीय विकासस्य विषये उपप्रधानमन्त्री सिंह सत्रत्रयम् सम्बोधयिष्यति। तस्मिन् क्रमे मन्त्री सिंह नेपालेन वसति विकासस्य क्रमे शोडानाम् समस्यानाम् जलवायु परिवर्तनस्य कारणेन संयमानायाः समस्यायाः वसति विकासस्य क्रमे नेपालेन अधिगताया उपलब्धेश्च विषये संसारस्य ध्यानाकर्षणम् विधास्यतीति मन्त्रालयेन ज्ञापितमस्ति। ऊर्जा जलस्रोत सेचन मन्त्री दीपक खड्का अन्तर्राष्ट्रिय सौर्य गठबन्धनस्य सम्मेलने सहभागी भवितुम् भारतदेशम् प्रस्थितोऽस्ति। नयाँ दिल्ली नगरे नोभेम्बर मासस्य तृतीयाद षष्ठम दिवसम यावद आयोक्ष्यमाणे सप्तम गठबन्धन सम्मेलने भागम ग्रहीतुम मन्त्री खड्का तत्र ह्यः प्रस्थितोऽस्ति। पञ्चदशोत्तर द्विसहस्रतमे ख्रीष्टवर्षे फ्रांस देशस्य पेरिस नगरे संयुक्त राष्ट्र संघीय जलवायु परिवर्तन सम्मेलनस्य एकविंशे सत्रे अन्तर्राष्ट्रिय सौर्य गठबन्धनस्य घोषणा विहितासीत्। सम्मेलने आविश्वम ऊर्जसः प्राप्तिम वर्धयितुम् ऊर्जसः सुरक्षाम सुनिश्चेतुम् च ऊर्जो विकासस्य निर्देशनस्य माध्यमस्य रूपेण सौर्योर्जसः प्रविधेः वर्धमानोपयोगस्य विषयः विमृश्यमानो वर्तते। भातृटीकाम् धर्तुम् भारतात् नेपालम् आगच्छत कारयानम् दुर्घटितम् सद जनद्वयम् मृतम् वर्तते। भारतस्य पंजाब राज्याद वर्णी सीमा प्रवेश बिन्दुतः गृहम् प्रत्यावर्तमानम् कारयानम् बसयानम् च परस्परम् संघटिते सति जनद्वयम् मृतम् वर्तते। मृतकौ कपिलवस्तु जनपदस्य वाण गंगा नगरपालिकायाः नवम वडा क्षेत्रस्य वर्दहवा स्थानस्य दिनेश बेलवासे गैडाकोट नगरपालिकायाः अनिल सापकोटा चस्त इति प्रेरणा सूचितमस्ति। वन वातावरण मन्त्री ऐन बहादुर साई ठकुरी कोलम्बिया देशे जैविक विविधता सम्बद्धस्य महासन्धेः अन्तर्राष्ट्रिय सम्मेलने सहभागी भूत्वा ह्यः स्वदेशम् प्रत्यागतो वर्तते। कोलम्बिया देशस्य कालीनगरे अस्यैव अक्टोबर मासस्य षड्विंशात् दिवसात् एकत्रिंशम् दिवसम् यावत् सम्भूते सम्मेलने मन्त्री साई उच्चस्तरीयोपवेशद्वयम् ऊनत्रिंशे च दिवसयोः सम्बोधितवान् आसीत्। अद्यतः आगामिनः बृहस्पतिवासरम् यावत् संयुक्ताधिराज्यस्य स्कटल्याण्ड स्थानस्य ग्लास्लो स्थाने समायोक्ष्यमाना याम अन्तर्राष्ट्रिय प्रहरी संगठनस्य द्वानवतितम्याम् महासभायाम् भागम् ग्रहीतुम् प्रहरी महानिरीक्षकः वसन्त बहादुर कुमारः त्रिसदस्यीय प्रतिनिधिमण्डलस्य नेतृत्वम् विदधान तत्र प्रस्थितो वर्तते। अन्तर्राष्ट्रिय प्रहरी संगठनस्य षण्णवत्युत्तर शतस्य राष्ट्राणाम् प्रतिनिधीनाम् सहभागितायाम् सम्पद्यमानायाः महासभायाः क्रमे इन्टरपोल संगठनस्य विश्व स्वास्थ्य संगठनस्य च मध्ये सहयोगस्य आतंकवाद विरूद्धस्य रणनीतेः प्रहरिणः विश्लेषणात्मक क्षमतायाः अभिवृद्धेः अतिवाद विरूद्धे एकीकृत रणनीतेश्च विषयेषु विमृक्षमाणमस्तीति केन्द्रीय प्रहरी समाचार कक्षेण ज्ञापितमस्ति। मध्यपुर ठिमी नगरपालिकायाः चतुर्थवडा क्षेत्रस्य चादो बाटो स्थाने ह्यः मोटरसाइकल यानम् बसयानम् च परस्परम् संघटिते सति एको जनाः मृतोऽस्ति। भक्तपुरात् काष्ठमण्डपम् प्रति प्रस्थीयमानम् मयूर यातायात सेवायाः बसयानम् मोटरसाइकल यानेन सह संघटितम् सद मोटरसाइकल यानस्य पश्चभागे आरूढः चाँगो नारायणपालिकायाः बागेश्वर स्थान निवासिनी पञ्चचत्वारिंशत् वर्षीया अप्सरा फुयालः मृतास्तीति प्रहरिणा सूचितम् वर्तते। दुर्घटनायाम् आहता फुयालः भक्तपुर अन्तर्राष्ट्रिय चिकित्सालये उपचारस्य क्रमे मृतास्ति। नेपालीनाम् द्वितीय महत यमपञ्चक पर्वण समायोजनेन सैव अतपरम् राजधानी सहितेषु तराई क्षेत्रस्य जनपदेषु छठ पर्वण पूर्वकार्यम् प्रारब्धमस्ति। इति समाचारः।